एसा रेडियो नेपाल सम्प्रति समाचार श्रीअन्ताम प्रवाचक ध्रुव भट्टराई निर्वाचन आयोगेन गत मार्ग शीर्षमासस्य चतुर्थे दिवसे सम्पन्नस्य प्रदेश सभानां सदस्यानां निर्वाचनस्य परिणामेन सहितं प्रतिवेदनं गतदिने सप्तानामेव प्रदेशानां प्रदेश प्रमुखाणां समक्षम् अर्पितमस्ति। आयोगस्य प्रमुख निर्वाचन आयुक्तेन आयुक्तै सचिवेन सहसचिवेन च सहिता समूहः सर्वेषां प्रदेशानां मुख्यालयस्थितेषु प्रदेश प्रमुखाणां कार्यालयेषु पृथक् पृथक् रूपेण प्रतिवेदनमिदं अर्पयन् प्रतिवेदनम् अर्पयितुं प्रथम प्रदेशे प्रमुख निर्वाचनायुक्तस्य दिनेश कुमार थपलिया विधस्य गण्डकी प्रदेशे आयुक्तस्य ईश्वरी प्रसाद पौड्यालस्य लुम्बिनी प्रदेशे आयुक्तस्य रामप्रसाद भण्डारिणः सुदूर पश्चिम प्रदेशे आयुक्ताय डाक्टर जानकी कुमारी तुलाधरस्य मधेस प्रदेशे आयुक्तस्य सगुन शमशेर जबरा इत्यस्य बागमती प्रदेशे सचिवस्य गोकर्णमणि दुवाडी इत्यभिधेयस्य कर्णाली प्रदेशे सहसचिवस्य यज्ञ प्रसाद भट्टराई इत्यस्य च नेतृत्वे आयोगस्य समूहः प्राप्तः आसन्। एभि समूहे प्रदेशगत निर्वाचनस्य विवरणं पत्रकार सम्मेलनस्य माध्यमेन सार्वजनिकृतम् इति आयोगस्य सहायक प्रवक्ता कमल भट्टराई अज्ञापयत्। प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया मार्ग शीर्ष मासस्य चतुर्थे दिवसे सम्पन्ने प्रतिनिधि सभाय प्रदेश सभानां च निर्वाचने घटबन्धनस्य कारणेन अस्वीकृत मतानां संख्या वर्धित इति तर्कयति। प्रथम प्रदेशस्य संसद सचिवालय ह्य आयोजिते पत्रकार सम्मेलने प्रमुखायुक्त थपलिया अवोचत् आयोगेन मतदातृ शिक्षायां प्रदत्तायां सत्यामपि दलानां घटबन्धनस्य कारणेन मतदातृणां द्वैविध्येन अस्वीकृतानि मतानि अवर्धन्त। प्रथम प्रदेशस्य त्रिनवति सदस्यीयायं प्रदेशसभायां एमाले दलेन चत्वारिंशत् कांग्रेस दलेन उनत्रिंशत् माओवादी केन्द्रेण चतुर्दश राप्रपा दलेन षट् नेकपा एकीकृत समाजवादी दलेन चत्वारि जनता समाजवादी दलेन च एकम स्थानानि प्राप्तानि सन्ति। प्रधानमन्त्री शेरबहादुर देउवा प्रतिनिधि सभायां प्रभावकारी भूमिकाया निर्वहणाय नवनिर्वाचितान् सांसदान् निर्दिशति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य आयोजिते नेपाली कांग्रेस दलात् निर्वाचितानां सांसदानां स्वागत सम्मान कार्यक्रमे प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापति श देउवा सांसदान् प्रतिनिधि सभायां प्रभावकारी भूमिकाया निर्वहणाय निर्देशन आगामी सर्वकार्य संगठनस्य विषय व्यमृशत। विमर्शने नेपाली कांग्रेस दलेन निर्वाचन प्रथम दलस्य स्थान प्राप्ति कारणेन अतः परम गठबन्धनस्य दलानां मध्ये समन्वयं संस्थाप्य सहकार्यं विधाय च कांग्रेस दलस्यैव नेतृत्वे नवीन सर्वकार संघटितव्य इति आत्मविर्धारणा व्यक्तेति सांसदाः वदन्ति। विमर्शने सांसदाः कांग्रेस दलस्य नेतृत्वस्य सर्वकार वर्तमान जनादेशु स्थिति हेतोः गठबन्धनं यथावत् संस्थाप्य गठबन्धने सहभागितायै इच्छुकानि अन्यानि अपि दलानि सहैव नीत्वा सर्वकारं संघटयितुं धारणा व्यक्तवन्त इति नेपाली कांग्रेस दलम् ज्ञापयति। विमर्शनस्य पश्चात् संचारकर्मीसह सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की विपुलतम दलस्य रूपेण कांग्रेस दलेनैव प्रधानमन्त्रिण पदम् प्राप्तव्यम् सदपि अन्येषु पदेषु गठबन्धनस्य दलान मध्ये आवंटनम् विधायैव अग्रे वर्धितव्यमिति चर्चयन् अवदत् विषयेषु सत्ता गठबन्धनस्य दलानम् उपवेशेन निर्णेष्यते। जनादेश कांग्रेस दलस्यैव नेतृत्वे आगामि सर्वकारस्य संगठनाय अस्तित्व हेतोः गठबन्धनस्य दलानां मध्ये सहमतिं सन्धार्य कांग्रेस दलस्यैव नेतृत्वे आगामी सर्वकार संगठयिष्यते इति उपवेशानन्तरं नेपाली कांग्रेस दलस्य सांसद रामहरि खतिवडा संचारकर्मिणः अज्ञापयत्। प्रधानमन्त्री शेरबहादुर देउवा निगदति नागरिकाणां निकटवर्तिनां स्थानीय स्तरस्य सर्वकारणां भूमिकाया उत्तरदायिन्यभाव्यम्। ललितपुर महानगरपालिकाया चतुरुत्तर शततमस्य स्थापना दिवसस्य अवसरे यः महानगरस्य परिसरे आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा संविधानेन स्थानीय स्तरस्य सर्वकारेभ्य विकास निर्माणस्य सेवा प्रवाहस्य च आधारस्तम्भानां रूपेण महत्वपूर्ण अधिकार दायित्वं च प्रदत्तानि सन्ति इति हेतोः नागरिकान् प्रति स्थानीय कार्य दायित्व बाहिर्भाव्यमिति बलं प्रादात्। प्रधानमन्त्री देउवा अवोचत् उपत्यकाया प्राचीनस्य मौलिकता युतस्य च ललितपुर नगरस्य महानगरपालिका निर्माणस्य पश्चात् व्यवस्थित विकासेन सह नगरवासिनां जीवनस्य गुणस्तरीय सम्पादनस्य योजनाया सहितं नगरमेतत् अग्रे वर्धितमस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समिति उपवेश अध्यवसति ललितपुरस्य सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालय अध्य दिवा त्रिवादने उपविश्यमाने उपवेशे केन्द्रीय कार्य सम्पादन समिति पदाधिकारीण सदस्याश्च अनिवार्यता उपस्थिति अनुरूद्धा सन्तीति दल कार्यालयस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन ह्यः प्रकाशितायं सूचनायं ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा निगदति कांग्रेस दलस्य नेतृत्वे संघटयिष्यमाण सर्वकार जनताय नवीनतां प्रदास्यति। काष्ठमण्डपस्य चतुर्थ क्षेत्रे ह्य आयोजिते कार्यक्रमे महामन्त्री थापा अकथयत् नागरिकै अपेक्षितं परिवर्तनं विचार्य कांग्रेस दलेन अनुकूलचिन्तनेन नवीनतां दातुं समर्थेन भाव्यम्। महामन्त्री थापा राष्ट्रपते चयनावधौ संविधानेन यत् परिकल्पितमस्ति तदेव मर्मध्यातुं बलम् अदात्। नेपाली कांग्रेस दलस्य उपसभापति धनराज गुरूङ कथयति संसद दलस्य नेताको भविष्यतीति विषय दले विमृश्यमानमस्ति। नेपाल निर्माण सम्बद्ध श्रमिक संघस्य चतुर्थम राष्ट्रिय महाधिवेशनम् ह्य बुटवल स्थाने उद्घाटन उपसभापति गुरूङ प्रधानमन्त्रीले स्वतस्य प्रस्तुत त्रिवि नेतृवि स्वस्य सम्पदा अनुसन्धानाय तत्पर भाव्यमिति धारणा व्यक्तवान्। पूर्व राष्ट्रपति डाक्टर रामबाण यादव कथयति लोकतन्त्रे संचारस्य अभिव्यक्तिस्य स्वतन्त्रताया संकुचनम् न कर्तव्यम्। नेपाल पत्रकार महासंघ प्रतिष्ठान प्रदेशस्य ह्यः काष्ठमण्डपे आयोजिताय वार्षिक साधारण सभायां पूर्व राष्ट्रपति डाक्टर यादव परिवर्तनाय विभिन्नेषु समयेषु विहितेषु आन्दोलनेषु संचार क्षेत्रेण उढा भूमिका महत्वपूर्ण आसीदिति अस्मरत। असौ अगदत् पत्रकारिताय माध्यमेन राज्यस्य न्यूनताम् अपाकर्तुम् बलम मिलति इत्यतः पत्रकारै स्वस्य दायित्वं न विस्मर्तव्यम्। कार्यक्रमे नेपाल पत्रकार महासंघस्य अध्यक्ष विपुल पोखरेल अवोचत् संचार अभिव्यक्ति स्वतन्त्रताया संकुचनस्य नीति स्वीकार्या न भवति। असौ अभासत श्रमजीवी पत्रकारणं वृत्ते भौतिक सुरक्षाया श्रमस्य च उचित सम्मान आवश्यको वर्तते। महासंघस्य प्रतिष्ठान प्रदेशस्य अध्यक्ष बालकृष्ण अधिकारी साधारण सभायां कोरोना महामार्या मध्येपि प्रतिष्ठानेन विहितानां कार्याणां समीक्षा आगामी रणनीति निर्माणस्य विषय विमर्शन च भविष्यत इति अज्ञापयत्। राष्ट्रिय सभा अध्यक्ष गणेश प्रसाद तिमिल सिन्हा वदति समाजस्य रूपान्तरणाय बाल बालिकासु निवेशनं वर्धनीयम्। लुनिभा बाल सम्बद्धता समूहस्य रजत जयन्त्या समापन कार्यक्रमे ह्य अध्यक्ष तिमल सिन्हा अवोचत् अद्यतन्य बाल बालिका एव देशस्य भविष्यम् सन्ति इत्यतः एतासम् अधिकारणम् संरक्षणाय संवर्धनाय च राज्येन पूर्णरूपेण दायित्ववाहिना भाव्यम्। रामेछाप जनपदस्य उमाकुण्ड ग्रामपालिकाया सप्तवडा क्षेत्रवर्तिनी भुजी स्थाने यो बोलेरो जीपयानम् दुर्घटितम् सत् एकादश जना आहताः सन्ति। आहतानाम् मध्ये त्रणायम् जनानाम् अवस्था गभीरा स्थिति रामेछाप जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक राजकुमार थिङ अज्ञापयत्। लिखु तामाकोशी ग्रामपालिकाया प्रथमवडा क्षेत्रवर्तिन दुरा गाउँ स्थानत उमाकुण्ड ग्रामपालिका सप्तवडा क्षेत्रवर्ती भुजी स्थानम् प्रति गच्छत् तत् बोलेरो जीपयानम् एक राते पहरो स्थाने दुर्घटितम् आसीत्। जीपयानम् अबज्रीकृते मार्गे अनियन्त्रितम् भूत्वा आसन्न 55 मीटर मिताध निपतितम् आसीत्। चीन देशस्य प्रमुख नगरे सांघाई स्थाने कोविड संक्रमणस्य वर्ष अनन्तरम् तत्र सर्वकारण विद्यालयन पिधाप्य अनलाइन प्रविधि माध्यमेन अध्यापनाय आदिष्टमस्ति।